नमस्सर्वेभ्यः. अद्य विभक्तिवर्गे त्रयोदशः पाठः, जनवरी मासस्य नवमः दिनाङ्कः. रामो राजमणिः सदा विजयते, रामं रमेशं भजे. रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः. रामान्नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहम्. रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर. गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो. तृतीया विभक्तेः अध्ययनं समाप्तम्. एतावता यदधीतं तस्य किञ्चित् पुनरावर्तनं कृत्वा अग्रे सरामः. आदौ अस्मिन् वर्गे अस्माभिः विभक्तिः इत्यस्य शब्दस्य कः अर्थः, कति प्रकारकाः विभक्तयः सन्ति, तासां च अर्थाः के इत्यधीतम्. विभक्तिः पदं द्विविधं सुबन्तं तिङन्तं चेति. पदे सर्वदा भागद्वयं भवति, प्रकृतिः तथा प्रत्ययः. सुबन्तेषु प्रकृतिः प्रातिपदिकं, प्रत्ययाश्च सुप् प्रत्ययाः. तिङन्तेषु प्रकृतिः धातुः, प्रत्ययाश्च तिङ् प्रत्ययाः. तत्र सुबन्तेषु प्रातिपदिकेभ्यः ये सुप् इति प्रत्ययाः योज्यन्ते, ते एव विभक्तिसंज्ञकाः. तादृशाः एकविंशतिः प्रत्ययाः सन्ति, ते च सप्तसु गणेषु विभक्ताः. एतेषां गणानामेव प्रथमा विभक्तिः, द्वितीया विभक्तिः, तृतीया विभक्तिः, चतुर्थी विभक्तिः, पञ्चमी विभक्तिः, षष्ठी विभक्तिः, सप्तमी विभक्तिः इति नाम. प्रतिविभक्ति त्रयः प्रत्ययाः भवन्ति, एकवचन द्विवचन बहुवचनसंज्ञकाः. किमर्थमेते एताः विभक्तयः उपयुज्यन्ते इति चेत्, प्रधानतया चतुर्षु स्थलेषु विभक्तीनां प्रयोगः भवति. प्रथमस्तावत् वस्तुनिर्देशार्थं. प्रातिपदिकस्य यः अर्थः, यथा वृक्ष इत्युक्ते वृक्षशब्देन यः पदार्थः उच्यते, केवलं तस्य निर्देशार्थम्. No additional meaning other than just the basic meaning of the pratipadika. Tasmin arthe prathama vibhakti bhavati. Kriyaya saha sambandham dyotayitum prayaha sarvaha vibhaktayaha upayujyante. Kriyayaha kartakaha karmakim ityadi jnatum athava tamartham bodhayitum vibhaktayaha upayujyante. Vakye केनचित् विशिष्टेन पदेन सह अन्वयं प्रदर्शयितुं, यथा नमः इति पदम् इति वाक्ये उपयुज्यते, तर्हि तेन पदेन किं पदम् अन्वेति इत्यस्य ज्ञानं विभक्त्या भवति. गुरवे नमः, पाणिनये नमः इत्यादि चतुर्थी विभक्त्या भवति. सा उपपदविभक्तिः, पदम् आश्रित्य प्रवृत्ता विभक्तिः उपपदविभक्तिः इत्युच्यते. पुनश्च पदार्थेन सह सम्बन्धं द्योतयितुं, द्वयोः पदार्थयोः मध्ये यदि सम्बन्धः विद्यते, बालस्य पुस्तकं, गिरिजायाः पुत्री, एवं बालस्य पुस्तकस्य च मध्ये यः सम्बन्धः, तस्य द्योतनार्थं विभक्तिः. एवं गिरिजा इति महिलायाः तथा तत्पुत्र्याश्च मध्ये यः सम्बन्धः, तद्योतयितुं विभक्तिः. एवं पदार्थयोः मध्ये सम्बन्धं द्योतयितुमपि विभक्तेः प्रयोगः भवति. तत्र तिस्रः विभक्तयः अस्माभिः दृष्टाः. तत्र प्रथमा विभक्तिः वस्तुनिर्देशे, क्षम्यतां वाक्यनिर्देशे इत्यस्ति, वस्तुतः वस्तुनिर्देशे कस्यचित् वस्तुनः निर्देशार्थम् उपयुज्यते. कर्तुः प्रथमा विभक्तिः भवति, बालः पठति, अहं गच्छामि इत्यादिषु कर्तृवाचकात् पदात् प्रथमा विभक्तिः दृश्यते. एवं कर्मवाचकात् पदादपि प्रथमा विभक्तिः दृश्यते, मया पाठः पठ्यते इत्यत्र पाठशब्दात् प्रथमा विभक्तिः, पाठः कर्म, मया कार्यं करणीयम् इत्यत्र कार्यशब्दः प्रथमा विभक्तौ. एवं कर्मवाचकादपि प्रथमा विभक्तिः दृश्यते. द्वितीया विभक्तिः अपि अधीता, कर्मवाचकात् द्वितीया विभक्तिः अपि दृश्यते, सः पाठं पठति, अहं गृहं गच्छामि इत्यादिषु कर्मवाचकात् द्वितीया विभक्तिः भवति. द्विकर्मकप्रयोगेषु कर्मपदद्वयं भवति, उभाभ्यामपि द्वितीया विभक्तिः दृश्यते. गुरुः छात्रं प्रश्नं पृच्छति, तत्र प्रश्नः इत्यपि कर्म, छात्रः इत्यपि कर्म, उभाभ्यां द्वितीया विभक्तिः भवति. एवं स्यूतं शालां नयति, तत्र स्यूतः अपि कर्म, शाला अपि कर्म, उभाभ्यां द्वितीया विभक्तिः. द्विकर्मकप्रयोगाः सर्वेषां धातूनां न सम्भवन्ति, केषाञ्चित् धातूनां, तत्रापि प्रधानतया वदति, पृच्छति, प्रार्थयति, नयति इत्यादीनां प्रयोगे पाठयति तथा एतेषां पञ्चानां तदर्थकानां धातूनां प्रयोगे प्रायेण कर्मपदद्वयं सम्भवति. उपपदद्वितीया, पदम् आश्रित्य यत्र द्वितीया विभक्तिः प्रवर्तते सापि दृष्टा, यथा परितः इत्यस्य प्रयोगे तत्सम्बद्धं पदं द्वितीया विभक्तौ भवति. कृष्णं परितः गोपिकाः नृत्यन्ति, गृहं परितः उद्यानम् अस्ति, एवं द्वितीया विभक्तिः दृश्यते. विना इत्यनेन सम्बन्धे अपि द्वितीया भवति, यथा रामं विना गतिर्नास्ति, वायुं विना वयं न जीवामः इत्यादिषु. ततश्च तृतीया विभक्तिः अधीता, करणवाचकात् तृतीया विभक्तिः भवति, हस्तेन खादति, लेखन्या लिखति, दण्डेन ताडयति इत्यादिषु करणं क्रियायां प्रकृष्टोपयोगी. द मोस्ट् यूस्फुल् इन्स्ट्रुमेण्ट् इन् अकाम्प्लिशिङ्ग् एनी एक्शन् इस् काल्ड् करण. करणवाचकात् तृतीया विभक्तिः भवति. कर्तृवाचकेभ्यः तृतीया विभक्तिः भवति, मया कृतं, बालेन गतं, तया उक्तम् इत्यादिषु कर्तृवाचकात् तृतीया विभक्तिः भवति. भावसूचकानां पदानां तृतीया भवति, सन्तोषेण वदति, दुःखेन रोदिति, संशयेन पश्यति इत्यादिषु. उपपदतृतीया, सः इत्यस्य तथा तत्समानार्थकानां पदानां योगे तृतीया विभक्तिः भवति. सः, साकं, सार्धं, समम् इति चत्वारि अव्ययानि, तैस्सह योगे तृतीया विभक्तिः भवति. रामेण सह सीता गच्छति, त्वया सार्धम् अहम् आगच्छामि, मया साकं त्वमागच्छ, तैस्समं गायति इत्यादिषु. एवं केवलया तृतीया विभक्त्या अपि सहार्थः द्योत्यते. इवन् इफ् वी डु नाट् यूस् एनी आफ् सः, साकं, सार्धं, समम्, सो जस्ट् द यूस् आफ् तृतीया विभक्ति conveys the sense of along with. Okay. Maya agachha, come with me. Vina ityasya yoge tritiya vibhakti rapi bhavati, dvitiya tritiya upayoho sambhavaha asti. Tena vina trinam api na chalati ityata, tena iti tritiya. Alam ityasya yoge api tritiya bhavati, alam kalahena enough of quarrel. Alam bhojanena, enough of food. Nishedharthakasya, alam ityasya prayoge, tatsambaddham padam, tritiya vibhaktau bhavati. Ityetavata tisraha vibhaktayaha adhitaha. Kepi prashnaha santiva? Any questions from any of the previous portions? अग्रे गच्छामः इदानीं चतुर्थी विभक्तेः आरम्भः चतुर्थीयं विभक्तिः कथं प्रयोगः इति आदौ कानिचन उदाहरणानि पश्यामः एषः बालः एतत् पुस्तकम् एषः अपरः बालः अस्य मित्रम् ददाति इति क्रिया कः ददाति बालः ददाति बालः कर्ता किं ददाति पुस्तकं ददाति पुस्तकं कर्म कस्मै ददाति मित्राय ददाति सो व्हेनेवर देयर इज एक्शन ऑफ गिविंग देयर इज अ रिसिपिएंट बालः मित्राय पुस्तकं ददाति बालः मित्राय पुस्तकं ददाति एषा बालिका एषा लेखनी एषा तस्याः अग्रजा एषा छात्रा बालिका सा एव छात्रा का ददाति छात्रा ददाति किं ददाति लेखनीं ददाति कस्मै ददाति अग्रजायै ददाति छात्रा अग्रजायै लेखनीं ददाति ददाति इत्यस्मिन् एव अर्थे यच्छति इत्यपि क्रियापदं प्रयुज्यते कः यच्छति वैद्यः यच्छति किं यच्छति औषधं यच्छति कस्मै यच्छति अस्वस्थाय यच्छति वैद्यः अस्वस्थाय औषधं यच्छति एतेषु वाक्येषु मित्राय अग्रजायै अस्वस्थाय इत्यादिषु चतुर्थी विभक्तिः दृश्यते एते सर्वे संप्रदानम् इति उच्यन्ते किं संप्रदानम् दानक्रियायाः विषये ददाति इति क्रिया यत्र भवति तत्र कस्मै ददाति इति प्रश्नस्य उत्तरम् टु हूम् इज़ इट् गिवन् सो द रिसिपिएंट ऑफ गिविंग सो व्हेनेवर देयर इज गिविंग सो समबडी गिव्स ही इज द कर्ता समथिंग इज गिवन दैट इज द कर्म To whom? So there should be a recipient for the action of giving. So the recipient is called Sampradana. The sutra, Paninian sutra for this says, Karmana yam abhipraiti saha sampradanam. He who is intended abhipraiti, intended by the object. That is the agent or the karta wants the object to be associated with somebody. So that is called Sampradana. Whether he takes it or not. Say if I give a book, my friend might not take it. But still it will be Mitraya Dadati. Because my intention is that the Mitra should be the recipient. Sampradana Vachakat Chaturthi Vibhaktihi Drishyate Prayena. So Chaturthi Vibhaktehe Adu Rupani Pashyamaha Ekavachanasyaiva Rupam. ये वक्तुमिच्छन्ति तैहि हस्ताः उन्नीयन्ताम्। वरदराजन महोदय।
हेलो।
हाँ।
बालाय।
बालः बालाय।
जनकः जनकाय।
जनकाय।
देवः देवाय।
सम्यक्, धन्यवादाः। बालचंद्रन, राधाकृष्ण, यू हैव म्यूटेड योरसेल्फ, यू हैव टू क्लिक ऑन द माइक टू अनम्यूट।
मित्रम।
हाँ।
मित्राय।
मित्राय।
राष्ट्रम। राष्ट्राय। कुटुंबम। कुटुंबाय।
सम्यक्, धन्यवाद। गुरु।
बालिका।
बालिकायै। सम्यक्।
महिला। महिलायै।
महिलायै।
रमा। रमायै।
रमायै। धन्यवादाः। कृष्ण।
सीता। सीतायै।
गिरिजा।
गिरिजायै। शाला। शालायै।
राव महोदय।
नारी। नार्यै। गौरी। गौर्यै। गोपी। गोप्यै।
वेंकटेश्वरन। यू हैव टू अनम्यूट योरसेल्फ। क्लिक ऑन द माइक्रोफोन टू अनम्यूट। शिवराम कुलकर्णी महोदय।
नमो नमः। नदी। नद्यै।
नद्यै।
माधवी। माधव्यै।
माधव्यै।
माधव्यै। वाणी। वाण्यै।
वाण्यै। सम्यक्,
वाण्यै।
एवं चतुर्थी विभक्तौ एकवचने पुल्लिंगे नपुंसकलिंगे च आय बालाय जनकाय देवाय मित्राय राष्ट्राय कुटुंबाय समानं रूपं। स्त्रीलिंगे आकारान्तानां यै इति योज्यते। बालिकायै। महिलायै। रमायै। सीतायै। गिरिजायै। शालायै। इकारान्तेपि यै इति श्रूयते, किन्तु अत्र यञ् सन्धिः नार्यै ईकारः न श्रूयते। ईकारं निष्कास्य यै इति योजनीयम्। नार्यै। गौर्यै। गोप्यै। नद्यै। माधव्यै। वाण्यै। जस्ट रिमूव द ईकार एंड ऐड द यै। दैट विल गिव द एकवचन फॉर्म्स ऑफ ईकारांत स्त्रीलिंगस्। इदानीं चित्रं दृष्ट्वा कस्मै ददाति इति वक्तव्यम्। शर्मा महोदय। हेलो, न श्रूयते। मलकोंडय्य महोदय।
हरि ओम् सुप्रभातम् महोदय. विदूषकः
भिक्षुकः
भिक्षुकः भिक्षुकः
सस्यचतुर्थी
महिला भिक्षुकया अन्नं ददाति.
भिक्षुकाय ददाति.
भिक्षुकाय ददाति.
तावता अहम् इदानीं भिक्षुकाय ददाति.
वृद्धायै
वृद्धायै ददाति.
वृद्धायै ददाति. महिलायै
राजकुमारी
राजकुमार्यै
राजकुमार्यै ददाति. सम्यक्. हरमंदर सिंह वैद्याय ददाति.
वैद्याय सॉरी
वैद्याय ददाति. अयं पाचकः
पाचकाय ददाति.
पाचकाय ददाति.
छात्रायै ददाति.
छात्रायै ददाति. सम्यक्. मीनाक्षी
महिलायै ददाति.
महिलायै ददाति. एषः रजकः
रजकायै ददाति.
पुनः
रजकाय ददाति.
रजकाय ददाति. कुम्भकारः
कुम्भकाराय ददाति.
कुम्भकाराय ददाति. शुभा श्रीराम आरक्षिका. आरक्षिकायै ददाति. आरक्षकाय ददाति.
वैद्यायै ददाति.
वैद्यायै ददाति. सम्यक्. एवं ददाति इत्यत्र प्रयोगे कस्मै ददाति अथवा कस्यै इत्यस्य उत्तरं चतुर्थी विभक्तौ भवति. इदानीं वाक्यरचनां कुर्मः. कः कस्मै किं ददाति इति क्तवतु प्रत्ययान्तम् उपयुज्य. यथा जनकः पुत्राय धनं दत्तवान्. सो रिमेम्बर् वी हेव् लर्न्ड् द क्तवतु. दत्तवान् दत्तवती. सो जनकः पुत्राय धनं दत्तवान् इति वाक्यम्. एतादृशानि वाक्यानि रचनीयानि. श्रीवल्ली
नमो नमः. अम्बा पुत्र्यै वस्त्रं दत्तवती.
अम्बा पुत्र्यै वस्त्रं दत्तवती.
अध्यापकः छात्राय पुस्तकं दत्तवान्.
अध्यापकः छात्राय पुस्तकं दत्तवान्.
अध्यापिका छात्रायै लेखनीं दत्तवती.
अध्यापिका छात्रायै लेखनीं दत्तवती. कृष्ण यू हैव टू अनम्यूट योरसेल्फ.
धनिकः भिक्षुकाय धनं दत्तवान्
धनिकः भिक्षुकाय धनं दत्तवान्
राजा विप्राय धेनुं दत्तवान्
राजा विप्राय धेनुं दत्तवान् धन्यवादाः वरदराजन्
भक्तः देव्यै फलं दत्तवती
भक्तः
देव्यै फलं दत्तवती
किमर्थं दत्तवती का दत्तवती कः
भक्तः भक्तः देव्यै फलं दत्तवती
नो वै दत्तवती
दत्तवान् ऐ एम सॉरी
भक्तः दत्तवान् बिकॉज तव तु ऑलवेज रेफर्स टू द कर्ता हु गिव्स भक्तः देव्यै फलं दत्तवान्
देवी भक्ताय वरं दत्तवती
देवी भक्ताय वरं दत्तवती वेंकटेश्वरन महोदय
दुष्यन्तः शकुन्तलायै
अङ्गुलीयकं दत्तवान् दुष्यन्तः शकुन्तलायै अङ्गुलीयकं दत्तवान्
कुचेलः कृष्णाय
दत्तवान् कुचेलः कृष्णाय पृथुकं दत्तवान् पृथुकम् इस् द पफ्ड् रैस् वट् वी काल् द अवल् रैस् फ्लेक्स् नेक्स्ट् श्रीप्रिया
पति पत्न्यै स्वर्णमालिकां पतिः पत्न्यै स्वर्णमालिकां दत्तवान्
पतिः पत्न्यै स्वर्णमालिकां दत्तवान्
रमा गौर्यै शाटिकां दत्तवती
रमा गौर्यै शाटिकां दत्तवती सम्यक् एवं चतुर्थी विभक्तौ वाक्यरचनायाः अभ्यासः कश्चन प्रश्नः अस्ति यच्छति इत्यस्य खतवतु प्रत्ययान्ते किं भवति इति तत्रापि दत्तवान् दत्तवती इत्येव रूपं भवति उभयत्र भूतकाले दत्तवान् इत्येव भवति इदानीं सर्वेषु वचनेषु चतुर्थी विभक्तिरूपाणि पश्यामः बालाय बालाभ्यां बालेभ्यः बालाय बालाभ्यां बालेभ्यः मित्राय मित्राभ्यां मित्रेभ्यः पुल्लिङ्गे नपुंसकलिङ्गे च समानं रूपं बालिकायै बालिकाभ्यां बालिकाभ्यः बालिकायै बालिकाभ्यां बालिकाभ्यः नार्यै नारीभ्यां नारीभ्यः नार्यै नारीभ्यां नारीभ्यः इत्येवं चतुर्थी विभक्तौ रूपाणि भवन्ति एतेषाम् इदानीम् अभ्यासं कुर्मः वाक्यरचना एव कस्मै किं ददाति यथा बाल इति द्विवचने बालाभ्यां पुस्तक इत्यपि द्विवचने पुस्तके ददाति बालाभ्यां पुस्तके ददाति एवं वाक्यानि रचनीयानि मलकोण्डय महोदय प्रश्नः अस्ति वा
अस्तु महोदय पृथक् लिङ्गं किं महोदय पुंलिङ्गं स्त्रीलिङ्गम् अथवा नपुंसकलिङ्गम्
नपुंसकलिङ्गम् पृथुकम्
पृथुकम्
आम् पृथुकम्
पृथुकम्
आम्
पृथुकम् धन्यवादः
रमा गुरुराजम् श्रूयते वा ऐ केनाट् हियर् यु श्रीधर श्रीनिवासन
नमस्ते
पठतु
इदानीं किं करणीयं मित्र मित्राभ्यां लेखन्याः
ददाति मित्राभ्यां लेखन्यौ ददाति नो बिकास् यु डोण्ट् हाव् द कर्ता स्पेसिफैड् इट्स् ओन्ली इफ् द कर्ता स्पेसिफैड् यु केन् गेस् इफ् इट् इस् दत्तवान् और् दत्तवती सिन्स् देर् इस् नो कर्तृपद हियर् लेट्स् यूस् ददाति
ओके पुत्राभ्यां अश्वौ ददाति
पुत्राभ्याम् अश्वौ ददाति
छात्राभ्यां फले ददाति
छात्राभ्यां फले ददाति सम्यक् शर्मा महोदय हरिः ओम् श्रूयते वा एनिबडि एल्स् वाण्ट्स् टु ट्रै हू हव् नाट् ट्रैड् सो फार् रमा गुरुराजन् Are you speaking? I'm sorry, I cannot hear you. I can see your typed things, but I cannot hear you.
Idanim?
Ah, Shruyate. Vadatu.
Ah, namo namah.
Ha.
Vanarabhyam.
Hmm.
Kadil,
कदल्यौ वानराभ्यां कदल्यौ ददाति
गजाभ्यां माले ददाति
सम्यक् गजाभ्यां माले ददाति धन्यवादाः रङ्गनाथन् बहुवचनानां प्रयोगः इदानीं हा रङ्गनाथन् महोदय क्षम्यतां न श्रुतं प्रथमः भागः न श्रुतः
दुष्टकानि
भिक्षुकेभ्यः
भिक्षुकेभ्यः नाणकः
नाणकानि
नाणकानि ददाति
हाँ भिक्षुकेभ्यः नाणकानि ददाति
जनाभ्याम
जनेभ्यः
वस्त्राणि ददाति
वस्त्राणि ददाति
वस्त्राणि ददाति
जनेभ्यः वस्त्राणि ददाति सुमा
अस्वस्थेभ्यः गुलिकाः ददाति
अस्वस्थेभ्यः गुलिकाः ददाति गुलिका इज अ टैबलेट
पंडितेभ्यः गृहाणि ददाति
पंडितेभ्यः गृहाणि ददाति सो अदर्स एनीबॉडी एल्स वांट्स टू ट्राई ओके मलकोंडय्य
अस्तु कर्म कर्मकेभ्यः
कर्मकरेभ्यः
जल कर्मकरेभ्यः जल जल गौरी गौर्य गौर्यः जलकूप्यः ददाति
गौरीं गौर्यौ गौरीः द्वितीया विभक्तिः
गौरी अहं प्रथमं विभक्ति गौरी गौरीं गौरीः कर्मकरेभ्यः जलकूपीं ददाति
जलकूपीः ददाति बहुवचने कर्मकरेभ्यः जलकूपीः ददाति
द्वितीयापि जलकूपीं बहुवचन जलकूपीं न
बहुवचने जलकूपीः गौरीं गौर्यौ गौरीः
गौरीं गौर्यौ गौरीः अस्तु मम
अग्रिमम् अग्रिमम्
अग्रिमम् क्षम्यताम् वृद्धेभ्यः दण्डान् ददाति
वृद्धेभ्यः दण्डान् ददाति एवं पुल्लिङ्गस्य बहुवचने अभ्यासः कृतः स्त्रीलिङ्गस्य अभ्यासं कुर्मः तत्र एकः प्रश्नः अस्मिन् अस्वस्थाय गुलिकां ददाति इत्यस्मिन् वाक्ये अस्वस्थाय इति शब्दः रोगवाचकः अपि भवितुमर्हति वा रोग न रोगी रोगी इति शब्दः न स्वस्थः अस्वस्थः हि हू इस् नाट् वेल् और् हि हू इस् इल् इत्यर्थे अस्वस्थः रोगी इति शब्दः अपि प्रयोक्तुं शक्यते किन्तु रोगी इति शब्दः नकारान्तः क्लिष्टः अतः मया अस्वस्थः इति प्रयुक्तम् रोगी इति भवितुमर्हति रोगवाचकः न रोगः इत्युक्ते अस्वास्थ्यम् अस्वास्थ्यम् इस् रोगः अस्वस्थः इस् रोगी हि हू इस् नाट् वेल् अत्र बालकः बालिकायै पुष्पं ददाति इति एकवचने बालकः बालिकाभ्यां पुष्पे ददाति इति द्विवचने बालकः बालिकाभ्यः पुष्पाणि ददाति इति बहुवचने सम्प्रदानस्य कर्मणः च वचनेषु सर्वेषु वचनेषु प्रयोगं कुर्मः सो टेक् वन् एण्ड् टेल् दट् सेण्टेन्स् इन् आल् त्री लिङ्गास् ओके no need to change the kartrapada. Change the karma pada and the sampradana. Okay. Shivalli. You muted yourself. You don't mute. You have to click on the microphone to unmute yourself. Okay. Meenakshi.
Balasaha.
Grajayai.
Satsam. Dati. Balakaha Udrajabhyam Vatikau
Shatike
Dadati Balakaha Agrajabhyaha Shatikaha Dadati.
Samyak. Agrajabhyah shatikah dadati. Harmandar Singh.
Balakah anujayai
shatikam
dadati.
Balakah
anujabhyam uske dadati. Balakah anujabhya pustikah
dadati. Samyak. So pustika is a stringa word. It means the same as pustakam. Pustakam iti napumsake. Pustika iti strilinge. But it is normally used for smaller books, like a booklet is called pustika rather than a pustaka. Okay. So okay. Agrimam. Rama, Guru Rajan.
Balakaha.
Vrdayai.
Syutam dadati. Balakaha vrdabhyam. Syutau dadati. Balakaha vrdabhyaha Sutan dadati.
Samyak. Shivaram Kulkarni.
Namo namaha. Balakaha karma karyai marjanim dadati. Balakaha karma karibhyam marjanyau dadati. Balakah karma kari bhya marjanihi dadati.
Samyak. Shubha. Shriya.
Balakah
gopyai
ghatam dadati. Balakah gopibhyam ghatam dadati. Balakah
ghatan dadati. Samyak. Suma.
Balakah sahodaryai lekanim dadati. Balakah sahodaribhyam lekanyau dadati. Balakah sahodaribhyah lekanihi dadati.
Samyak. Venkateshwaran. Okay. You have to unmute yourself.
तापसीभ्यः
बालकः तापस्यै फलं ददाति बालकः तापसीभ्यां फले ददाति बालकः तापसीभ्यः फलानि ददाति तापसी इत्यर्थ असेटिक् इत्यर्थः फीमेल् असेटिक् तापसः तापसी सतापसः वन् हू पर्फार्म्स् पेनन्स् इस् तापसः इन् पुल्लिङ्ग अण्ड् तापसी इन् स्त्रीलिङ्ग एनी डौट् वित् एनी आफ् द अदर् वर्ड्स् प्रश्नाः सन्ति वा एनी क्वश्चन्स् सो दिस् इस् द फस्ट् अण्ड् द मोस्ट् इम्पार्टेण्ट् इन्स्टेन्स् आफ् चतुर्थी विभक्ति इस् टु इण्डिकेट् द रिसिपियण्ट् आफ् गिविङ्ग् सो वेन्वर् दर् इस् द एक्शन् आफ् गिविङ्ग् सो द रिसिपियण्ट् इस् काल्ड् सम्प्रदान अण्ड् सम्प्रदान गेट्स् चतुर्थी विभक्ति इदानीं शब्दरूपाणां किञ्चित् अभ्यासं कुर्मः बहूनि दिनानि अतीतानि वस्तुतः सो वि विल् quickly recite the shabda rupas so those who want to volunteer please raise your hands Rao, Mahodaya.
This is too simple, but all right, go ahead.
Okay. You can try changing the word maybe. So, but still it is simple, correct?
Okay. I'll try Haraha.
Okay.
Haraha, Harau, Haraha, He Hara, He Hara, He Harau, He Haraha, Haram, Harau, Haran, हरेण हराभ्यां हरैः हराय हराभ्यां हरेभ्यः हरात् हराभ्यां हरेभ्यः हरस्य हरयोः हराणां हरे हरयोः हरिषु
हरेषु
हरेषु सोरि
सम्यक् नेक्स्ट् वरदराजन् महोदय
क्षमा क्षमे क्षमाः हे क्षमे हे क्षमे हे क्षमाः क्षमां क्षमे क्षमाः क्षमय क्षमाभ्यां क्षमाभिः क्षमायै क्षमाभ्यां क्षमाभ्यः क्षमायाः क्षमाभ्यां क्षमाभ्यः क्षमायाः क्षमयोः क्षमाणां क्षमायां क्षमयोः क्षमासु
सम्यक् रमा राजन्
नदी
एक ईकारान्तः स्त्रीलिङ्गः नदीशब्दः
स्त्रीलिङ्गः नदीशब्दः नदी नद्यौ नद्यः हे नदी हे नद्यौ हे नद्यः नदीं नद्यौ नदीः नद्या नदीभ्यां नदीभिः नद्यै नदीभ्यां नदीभ्यः नद्याः नदीभ्यां नदीभ्यः नद्याः नद्योः नदीनां नद्यां नद्योः नदीषु
सम्यक् మలకొండయ్య మహోదయ.
జ్ఞానశబ్ద అకారాంత నపుంసకలింగ జ్ఞానశబ్ద జ్ఞానం జ్ఞానాని హే జ్ఞాన హే జ్ఞాని హే జ్ఞానాని జ్ఞానం జ్ఞానే జ్ఞానాని జ్ఞానేన జ్ఞానాభ్యాం జ్ఞానై జ్ఞానాయ జ్ఞానాభ్యాం జ్ఞానేభ్య జ్ఞానాత్ జ్ఞానాభ్యాం జ్ఞానేభ్య జ్ఞానస్య జ్ఞానయో జ్ఞానానాం జ్ఞానే జ్ఞానయో జ్ఞానేషు.
సమ్యక్. లలిత సింగ్.
Yes. దకారాంత పుల్లింగ తదశబ్ద సహ తౌ తే తమ్ తౌ తాన్ తేన్ తాభ్యాం తైః తస్మై తాభ్యాం తేభ్యః తస్మాత్ తాభ్యాం తేభ్యః తస్య తయోః తేషాం తస్మిన్ తయోః తేషు.
మీనాక్షి.
వాట్ ఇస్ దిస్ ఏవం త్యద్ త్యద్ శబ్ద
త్యద్ ఇత్యపి సర్వనామ పదం అస్తి స్యః తౌ త్యౌ త్యే ఇత్యాది ఇట్ ఇస్ ద సేమ్ సెన్స్ ఆఫ్ సహ బట్ ఇట్ ఇస్ వెరీ రేర్లీ యూస్డ్
యా I haven't heard that.
Yes. I mean, even I have not seen it in, you know, in any usage. I know it only theoretically. So,
Which?
Tad Shabda.
I have to...
The Strilinga, one which is on the screen.
Oh, okay. Dakaranta Strilinga, Tad Shabda. Sa... ते ताः ताम ते ताः तया ताभ्याम ताभिः तस्यै ताभ्याम ताभ्यः तस्याः ताभ्याम ताभ्यः तस्याः तयोः तासाम तस्याम तयोः तासु.
त्यज् शब्दस्य रूपं कथं भवति इति प्रश्नः. పుల్లింగె స్యహ త్యౌ త్యే ఇతి, స్త్రీలింగె స్యాత్యేత్యాహ, నపుంసకలింగె స్యత్ త్యద్ త్యే త్యే త్యాని. శుభ. శ్రీరామ్.
దకారాంతః నపుంసకలింగః తద్ శబ్దః తద్ తే తాని తద్ తే తాని తేన తాభ్యాం తైః తస్మై తాభ్యాం తేభ్యః తస్మాత్ తాభ్యాం తేభ్యః తస్య తయోః తేషాం తస్మిన్ తయోః తేషు.
సమ్యక్. సుమా.
హలో. క్షమ్యతాం భగిని, దకారాంత పుల్లింగ ఏతద్ శబ్ద ఏషః ఏతౌ ఏతే ఏతం ఏనం ఏతౌ ఏనౌ ఏతాన్ ఏనాన్ ఏతేన ఏనేన ఏతాభ్యాం ఏతైః ఏతస్మై ఏతాభ్యాం ఏతేభ్యః ఏతస్మాత్ ఏతాభ్యాం ఏతేభ్యః ఏతస్య ఏతయోః ఏనయోః ఏతేషాం ఏతస్మిన్ ఏతయోః ఏనయోః ఏతేషు.
వెంకటేశ్వరన్.
ఏతయ एताभ्याम् एताभिः एतस्मिन् एताभ्याम् एताभ्यः एतस्याः एताभ्यः एताभ्यः एतस्याः एतयोः एनयोः एताम् एतस्याम् एतयोः एनयोः एतासु.
सम्यक्. श्रीप्रिया.
दकारान्तः नपुंसकलिङ्गः एतत् शब्दः एतत् एते एतानि एतत् एनत् एते एने एतानि एनानि एतेन एनेन एताभ्याम् एतैः एतस्मै एताभ्याम् एतेभ्यः एतस्मात् एताभ्याम् एतेभ्यः एतस्य एतयोः एनयोः एतेषाम् एतस्मिन् एतयोः एनयोः एतेषु.
रमा.
युष्मशब्दः त्वं युवान् यूयम् श्रूयते वा?
श्रूयते.
त्वां वा युवां त्वां युष्मान् वः त्वया युवाभ्यां युष्माभिः तुभ्यं ते युवाभ्यां वां युष्मभ्यं वः त्वत् युवाभ्यां युष्मत् तव ते युवयोः त्वां युष्माकं वः त्वयि युवयोः युष्मासु.
Thank you. So, anybody else wants to participate in reciting? Balachandran.
Dakarandah trishilingeshu samanah asmat shabdah aham avam vayam maam maam avam nau asman nah maya avabhyam asmabhihi mahyam me avabhyam nau asmabhyam nah mat avabhyam asmat मम मे आवयोः नौ अस्माकं नः मयि आवयोः अस्मासु.
सम्यक्. रङ्गनाथन् महोदय.
महारङ्गपुल्लिङ्गः किं शब्दः? कः कौ के कं कौ कान् केन काभ्यां कैः कस्मै काभ्यां तेभ्यः कस्मात् काभ्यां तेभ्यः कस्यै कस्य कयोः केषां केषु.
शिवराम कुलकर्णि.
नमो नमः. मकारान्त श्रीलिङ्गः किं शब्दः? का के काः काम के काः कया काभ्याम काभिः कस्यै काभ्याम काभ्यः कस्याः काभ्याम काभ्यः कस्याः कयोः कासाम कस्याम कयोः कासु.
हरिकृष्णन् महोदय. You have to unmute yourself by clicking on the microphone.
तकारान्त पुल्लिङ्ग भवत्शब्दः भवान् भवन्तौ भवन्तः हे भवन् हे भवन्तौ हे भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवताम् भवति भवतोः भवत्सु
शुभा धन्यवादः अद्यतनपाठः अत्र समाप्तः किन्तु केनचित् कश्चित् प्रश्नः पृष्टः संस्कृते वर्णानां संख्या का इति कति वर्णाः संस्कृतभाषायाम् इति तस्य उत्तरं किञ्चित् संक्षेपेण दातुं प्रयते तत्र वर्णानां संख्या हौ मेनि लेटर्स् संस्कृत इट् डिपेण्ड्स् आन् वाट् आल् वि आर् टेकिङ्ग् इन् टु कन्सिडरेशन् सो ऐ हेड् अ चाट् ऐ एम् नाट् श्योर् इफ् ऐ हेव् इट् रैट् नौ जस्ट् वन् मोमेण्ट् प्लीस् sorry I don't have the chat right now so I'll explain this in the next class because I mean it will be much easier if you have a look at the chat instead of you know just listening to it so definitely I'll answer this question in the next class mahodaya any other questions if not we will stop here रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो थैंक यू